इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्यारभ्य नाइजीरिया ब्राजील गुआना देशानां षड् दिवसीय यात्रार्थं गमिष्यति। एतेषां त्रयाणां राष्ट्राणां स्वयात्रायाः प्रथमे सोपाने प्रधानमन्त्री नरेन्द्रमोदी नाइजीरिया देशस्य राष्ट्रपतेः बोला अहमद टिनुबु इत्येतस्य निमन्त्रणे नाइजीरियां प्रति यास्यति। इयं सप्तदशसु वर्षेष् कस्यापि भारतीय प्रधानमन्त्रिणः प्रथमा नाइजीरिया यात्रा भवेदिति। नाइजीरियादेशे द्विदिवसीय प्रवासावधौ श्रीमोदी उभयोः देशयोः मध्ये राजनीतिक सहभागित्वस्य समीक्षाम् अपि च द्विपक्षीय सम्बन्धान् समेधितुम् अवसरेष् विविधेष् चर्चार्थं शीर्षनेतृभिः साकं मन्त्रणां विधास्यति। तत्र असौ भारतीय समुदायस्य सम्मेलनमेकं सम्बोधयिष्यति। तदनु प्रधानमन्त्री नाइजीरियातः अस्य मासस्य अष्टादश दिनांके राष्ट्रपतिना लुइस इनार्सियो लूला दा सिल्वा इत्यनेन आयोक्ष्यमाणे G20 इत्येतस्मिन् शिखर सम्मेलने भागग्रहणाय ब्राजील देशस्य रियो डी जेनेरियो नगरं प्रति प्रस्थास्यति। स्वयात्रायाः अन्तिमे तृतीये च चरणे प्रधानमन्त्री 19 एकविंशति दिनांकं यावत् गुआना नगरे भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी प्रोदीरितवान् यत् बोडो शान्ति सहभागिता न केवलं बोडो समुदायस्य कृते लाभदायिनी अपितु अनया सहभागितया अन्यासां शान्तीनां कृते मार्गाः उद्घाटिताः भविष्यन्ति। प्रधानमन्त्री ह्यः नवदिल्ल्यां प्रथमस्य बोडोलैण्ड महोत्सवस्य उद्घाटनं कुर्वन् उक्तवान् यत् शान्ति सहभागिता ज्ञापनेन 10,000+ युवानः शस्त्राणि अत्यजन्, येन हि असमराज्ये हिंसा अवरुद्धा जाता। एते युवानः समाजस्य मुख्यधारायां प्रविष्टाः अपि अभवन्। केन्द्रप्रशासनेन एतदर्थं बोडोलैण्ड विकासाय 5,100,000,000,000 रूप्यकाणां विशिष्टः राशिः अपि प्रदत्तः। झारखण्ड राज्ये एनडीए इंडी संयुति दलयोर्मध्ये आरोप प्रत्यारोपस्य प्रक्रिया विधानसभा निर्वाचनस्य प्रचाराभियानावधौ दृश्यते। ह्यः धनबाद नगरस्य टुंडी क्षेत्रे एकां जनसभां सम्बोधयन् भाजपेति दलीयः वरिष्ठ नेता राजनाथ सिंहः हेमंत सोरेन नेतृत्वाधायिनि प्रशासने भ्रष्टाचारस्य आरोपं प्रख्यापितवान्। तत्रैव बोकारो क्षेत्रे कांग्रेस दलस्य नेता राहुल गांधी उक्तवान् यत् केवलं संविधानमेव झारखण्डस्य निर्धन आदिवासी जनानां हितानां रक्षां कर्तुं शक्नोति इति। ध्यातव्यमस्ति यत् झारखण्ड विधानसभा निर्वाचनस्य द्वितीयस्य अन्तिमस्य च चरणस्य महाराष्ट्रे च एकस्मै चरणाय मतदानम् अस्य मासस्यैव 20 दिनांके भविष्यति, अथ च मतगणना 23 दिनांके सुनिश्चिता भविष्यति इति। केन्द्रीय गृहमन्त्री अमितशाहः उद्घोषणां कृतवान् यत् वर्धा नान्देड रेल परियोजना 5 वर्षाणाम् आभ्यन्तरे एव पूरयिष्यति। एतदतिरिच्य सिञ्चन व्यवस्थां सुदृढीकर्तुं पैनगंगानन्दी नदी सन्धि परियोजनायां सम्मिलिता स्यादिति। सहैव नागपुर मुंबई समृद्धि एक्सप्रेसवे इति यवतमाल जनपदस्य उमरखेड पर्यन्तं संवर्धयिष्यति। गृहमन्त्री ह्यः यवतमाल जनपदे महायुति प्रत्याशिभ्यः एकं जनसमागमं सम्बोधयन् आसीत्। श्रीशाहः चन्द्रपुरे इतोपि एकां जनसभां सम्बोधितवान्। स्वापक नियन्त्रण विभागेन दिल्ल्यां विहिते बृहत्तमे कार्याचरणे भूयोपि 900 कोटि रूप्यकाणां कोकेन इति मादक पदार्थस्य भेदः उद्घाटितः। क्रिकेट प्रतिस्पर्धायां भारतेन ह्यः रात्रौ चतुर्थे अन्तिमे च T20 इत्येतस्मिन् अन्ताराष्ट्रिय क्रिकेट द्वन्द्वे दक्षिण अफ्रीकादलं 35.1% धावनांकैः पराजितः इति वार्ताः।